नमस्कारः अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे सप्तमः पाठः जनवरी मासस्य सप्तविंशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् श्रीलक्ष्मीरमणम् नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते. वैयाकरणभूषणसारे धात्वर्थप्रकरणस्य अध्ययनम् आरब्धम्. तत्वर धात्वर्थविषये, शब्दबोधविषये च व्याकरण मीमांसा न्यायदर्शनानां प्रधानसिद्धान्ताः अस्माभिः अवगताः. यथा वैयाकरणैः फलव्यापारौ धात्वर्थः, कर्तृकर्मसङ्ख्याकालाः तिङर्थाः इति स्वीक्रियते, तथा च व्यापारमुख्यविशेषकः शब्दबोधः अङ्गीक्रियते. फलस्य कालस्य कर्तुश्च व्यापारे विशेषणत्वेन अन्वयः, सङ्ख्यायाः कर्तरि अन्वयः इति शब्दबोधस्य क्रमः. मीमांसकास्तु फलमात्रं धात्वर्थः, भावना सङ्ख्याकालश्च तिङर्थः इति मन्मते. तन्मते कर्तुः शब्दात् वाच्यत्वेन प्रतीतिः नास्ति. भावनायां तिङा भावनायाम् उक्तायां तया भावनया आक्षेपात् लक्षणया वा कर्तुः प्रतीतिः इति तेषां मतम्. परस्पर अन्वयस्तु समानः. फलं कालः कर्ता भावनायाम् अन्वेति सङ्ख्याकर्तरि, भावनामुख्यविशेषकः शाब्दबोधः मीमांसकसिद्धान्तः. नैयायिकास्तु फलव्यापारौ धात्वर्थः, कृतिः चेतनानिष्ठः व्यापारः कृतिः, कृतिः सङ्ख्याकालश्च तिङर्थः, कर्ता तु प्रथमान्तपदस्य अर्थः इति सिद्धान्तयन्ति. तन्मते प्रथमान्तार्थमुख्यविशेषकः शब्दबोधः, कृतिः सङ्ख्या च कर्तरि अन्वेति, कालः व्यापारश्च कृतौ, फलं व्यापारे इति शब्दबोधक्रमः. अयं भूमिकारूपेणैव सिद्धान्तः अस्माभिः अवगतः. साक्षात् ग्रन्थे किमुच्यते, फलव्यापारयोर्धातुः आश्रयेत तिङस्मृताः, फलेत् प्रधानं व्यापारः, तिङर्थस्तु विशेषणम् इति मूलकारिका. एतत् सर्वदा स्मर्तव्यम्. भूषणसारः व्याख्यानग्रन्थः. भट्टोजिदीक्षितानां वैयाकरणमतोन्मज्जनकारिकाः सन्ति. यासु कारिकासु भट्टोजिदीक्षिताः प्रमुखान् व्याकरणसिद्धान्तान् श्लोकरूपेण निबध्नन्ति. तेषां श्लोकानां व्याख्यारूपेण कौण्डभट्टः भूषणसाराख्यं ग्रन्थं विरचय्य तत्र दर्शनान्तरीयपूर्वपक्षाणां निरासपूर्वकं वैयाकरणसिद्धान्तान् प्रतिष्ठापयति. तत्र कारिका अस्ति फलव्यापारयोर्धातुः आश्रयेतु तिङस्मृताः, फले प्रधानं व्यापारः, तिङर्थस्तु विशेषणम् इति. धातुरिति अत्र स्मृतः इति वचनविपरिणामेनान्वयः फलं विक्लित्यादि. फलव्यापारयोर्धातुः स्मृतः, आश्रये तिङस्मृताः इति श्लोकस्य प्रथमार्धः. धातुः फलव्यापारयोः वाचकत्वेन स्मृतः, एवं तिङः आश्रयस्य वाचकत्वेन स्मृताः. तत्र फलं नाम किम् इति चेत् फलं विक्लित्यादि, पारिभाषिकं फलं न तु उद्देश्यं प्रयोजनं वा अत्र विवक्ष्यते. तद्धात्वर्थविशेषणत्वे सति तद्धात्वर्थत्वम्, अथवा तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थत्वम् इति फलस्य लक्षणं. तादृशं विक्लित्यादिकं फलम् अत्र फलशब्देन उच्यते. व्यापारस्तु भावनाभिधा साध्यत्वेन अभिधीयमाना क्रिया. व्यापारः नाम क्रिया, भावना इत्येतत् सर्वं वैयाकरणैः समानार्थकत्वेन उपयुज्यते. व्यापारः, कृतिः, भावना, क्रिया इति सर्वमपि समानम्. सर्वोऽपि व्यापारशब्देनैव उच्यते अस्माभिः, सा च साध्यत्वेन अभिधीयमाना क्रिया. क्रिया एव व्यापारः. क्रिया नाम का इत्यत्र वाक्यपदीये कारिका अस्ति. यावत् सिद्धम् असिद्धं वा साध्यत्वेन अभिधीयते, आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते. यावत् सिद्धं वा असिद्धं वा, फलं निर्वृत्तं वा भवतु, यथा भूतकालिकक्रियायां फलं सिद्धं भवति, वर्तमानकालिकक्रियायां भविष्यत्कालिकक्रियायां च फलम् असिद्धं भवति. तद्यथा वा भवतु, यस्मिन्नपि काले वा भवतु, साध्यत्वेन यत्र अभिधीयते, आश्रितक्रमरूपत्वात् क्रमशः अवयवानाम् उत्पत्तिः, क्रमिकोत्पत्तिः यत्र भवति, सा क्रिया इति नाम. तत्र साध्यत्वं नाम किम् इति अग्रे ग्रन्थे एव उच्यते. क्षम्यताम्. तिङन्तं न, एतत् स्मर्तव्यं. क्रियापदार्थः तिङन्तं तु पदम्. तिङन्तम् एकं पदमस्ति. पच् पचति इति एकं पदं. तस्मात् पदात् बहवः अर्थाः उच्यन्ते, न केवलं व्यापारः. तत्र फलं विक्लितिरूपं फलम् उच्यते, तदनुकूलः व्यापारः अथवा क्रिया उच्यते, कर्ता कर्म कर्ता सङ्ख्याकालः इत्येवं पञ्च अर्थाः तेन पदेन उच्यन्ते. तत्र कश्चन फलम् इति कश्चन पदार्थः. तत् किं फलं नाम विक्लित्यादि धात्वर्थजन्यत्वे सति तद्धात्वर्थत्वं फलत्वं तादृशं यत्र अस्ति तत् फलं. फलं पदार्थः, धातुना फलम् उच्यते. सो द धातु इस् अ वर्ड् विच् एक्स्प्रेसेस् द मीनिङ्ग् आफ् फल. इट् आल्सो एक्स्प्रेसेस् अ मीनिङ्ग् काल्ड् व्यापार. किं व्यापारः नाम कः इत्युक्ते व्यापारः नाम क्रिया. सो दट् इस् एक्शन्. साध्यत्वेन उच्यमाना क्रिया, सत्यं तदेव. साध्यक्रिया सिद्धक्रिया इति क्रियायाः एव द्वैविध्यम्. यत् नवगतः प्रश्नः. ತಿಂಗಂತದಿಂದ ಸಾಧ್ಯಕ್ರಿಯೆ ಹೇಳಲ್ಪಡುತ್ತದೆ. ತಿಂಗಂತ ಇದ್ರೆ ಅದರಿಂದ ಸಾಧ್ಯಕ್ರಿಯೆ ಗೊತ್ತಾಗುತ್ತೆ. ತಿಂಗಂತ ತಿಂಗಂತೇನ ಅಭಿಧೀಯತೆ ಕಿಂತು ಅತ್ರ ಕೇನ ಅಭಿಧೀಯತೆ ಇತಿ ನೋಚ್ಯತೆ. ಕ್ರಿಯಾ ನಾಮಕ ಇತ್ಯೇವ ಉಚ್ಯತೆ. ಕ್ರಿಯಾಯಾಹ ವಾಚಕಃ ಕಃ ಇತಿ ಅನಯಾಕಾರಿಕಯಾ ನ ಜ್ಞಾಯತೆ. ಕೇವಲ ಕ್ರಿಯಾಯಾಹ ಸ್ವರೂಪಂ ನಿರ್ಣೇತುಂ ಇಯಂ ಕಾರಿಕ. सा क्रिया धातुना अभिधीयते इति अस्माकं सिद्धान्तः अग्रे उच्यते. किन्तु क्रिया नामका सर्वत्र साध्यं, दट् विच् इस् जनरेटेड्, दट् द्रव्यं क्रिया इत्यनयोः अयमेव भेदः. द्रव्यं सर्वदा सिद्धं भवति, क्रिया साध्या भवति. साध्यत्वं नाम किम् इति अग्रे उच्यते. न च साध्यत्वेन अभिधाने मानाभावः. एषा क्रिया व्यापारः अथवा क्रिया धातुना साध्यत्वेन रूपेण उच्यते इत्यत्र किं प्रमाणम्? पचति पाकः, करोति कृतिः इत्यादौ धात्वर्थावगम अविशेषेऽपि क्रियान्तर आकाङ्क्षा अनाकाङ्क्षयोः दर्शनस्यैव मानत्वात्. समानधातोः तिङन्तरूपमपि निष्पाद्यते, कृदन्तरूपमपि निष्पाद्यते. यथा पच् इति धातोः पचति इति तिङन्तं, पाकः इति कृदन्तम्. भावार्थके घञ् प्रत्यये निष्पन्नः शब्दः. एवं करोति कृतिः, अत्र धातुः समानः, तथापि भेदः अस्ति. क्रियान्तर आकाङ्क्षा अनाकाङ्क्षा, कः भेदः इति चेत् यत्र पचति इत्युच्यते तत्र द्रव्यविषयिणी आकाङ्क्षा उत्पद्यते, कः पचति, किं पचति इत्यादि. यत्र तु पाकः इत्युच्यते तत्र पाकः भवति अथवा भविष्यति इति क्रियाविषयिणी आकाङ्क्षा उत्पद्यते. यत्र क्रियान्तर आकाङ्क्षा भवति सा क्रिया सिद्धक्रिया इत्युच्यते. तस्य अभिधानं, सिद्धक्रियायाः अभिधानं कृदन्तरूपैः भवति. यत्र क्रियान्तरस्य आकाङ्क्षा नोदेति तादृशी क्रिया साध्यक्रिया इत्युच्यते. तिङन्तैः साध्यक्रियायाः अभिधानं भवति. तथा च क्रियान्तराकांक्षा अनुत्थापकता अवच्छेदकत्वं साध्यत्वम्। अतः साध्यत्वं नाम किम्? यत्र क्रियान्तरस्य आकांक्षा नोदेति। क्रिया स्वयं पूर्णा, सो द मीनिंग ऑफ एक्शन इज कम्प्लीट बै इट्सेल्फ, इट डज नॉट रिक्वायर अनदर एक्शन टू कम्प्लीट इट्स मीनिंग। तादृशी क्रिया साध्यक्रिया इत्युच्यते। तद्रूपवत्त्वं असत्त्वभूतत्वं, तद् नाम साध्यम्। साध्यरूपवत्त्वं, यस्यां यत्र साध्यरूपवत्त्वं अस्ति तदेव असत्त्वभूतत्वम् इत्युच्यते। अतः क्रिया सर्वदा, एतादृशी क्रिया सर्वदा असत्त्वभूता, साध्यक्रिया असत्त्वभूता। अत एव असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते इति वाक्यपदीयम् इति द्रष्टव्यम्। असत्त्वभूतः भावः, भावः नाम व्यापारः अथवा क्रिया। सा क्रिया सत्कदाचित् सत्त्वभूता भवति, कदाचित् असत्त्वभूता। तिङ्पदैः नाम धातुभिः असत्त्वभूतः भावः, असत्त्वभूता क्रिया अभिधीयते इति वाक्यपदीयम्। कृदन्तैस्तु सत्त्वभूतः भावः, द्रव्यरूपेण यद्यपि क्रिया तथापि द्रव्यरूपेण अभिधीयते। अत एव कृदभिहितो भावो द्रव्यवत् प्रकाशते इति भाष्यम्। यत्र पाकः इत्युच्यते यद्यपि सा क्रिया तथापि तेन द्रव्यमेव प्राधान्येन ज्ञायते, न तु क्रिया। पाकः इत्यत्र द्रव्यस्यैव प्राधान्यम्, पचति इत्यत्र तु क्रियायाः प्राधान्यम्। अयञ्च व्यापारः इति व्यापारस्य स्वरूपमुक्तम्। आदौ फलस्य स्वरूपमुक्तम्, अग्रे व्यापारस्य स्वरूपमुक्तम्। किं नाम, को नाम व्यापारः? साध्यत्वेन अभिधीयमाना क्रिया एव व्यापारशब्देन व्यवह्रियते। स च व्यापारः कीदृशः? एकः वा अनेकः वा इति चेत् अनेकः। सर्वदा क्रिया, यद्यपि क्रिया एका इति व्यवह्रियते, तथापि सर्वासु क्रियासु अवान्तरक्रियाः भवन्ति। तदेव क्रियायाः लक्षणम्, आश्रितक्रमरूपत्वम्। क्रमशः अवयवानाम् उत्पत्तिः यत्र भवति सा एव क्रिया इत्युच्यते। अतः सर्वत्र क्रियायाम् अवान्तरक्रियाः भवन्त्येव। अयञ्च व्यापारः भूत्कारत्व अधःसन्तापनत्व यत्नत्वादि तत्तद्रूपेण वाच्यः व्यापारः तत्तद्रूपेण वाच्यः। यद्यपि एकः व्यापारः इति स्वीक्रियते, तथापि व्यापारस्य समुदायत्वेन वाच्यत्वं न, अपि तु तत्तत् क्रियारूपत्वेन। यस्मिन् समये या क्रिया, इदानीं यः माता यदा पचति, तदा यदि चुल्ल्याः ज्वालने निरता अस्ति तर्हि सः व्यापारः पचितः तु न बोध्यते। यदि स्थालिकायां तण्डुलं स्थापयति तर्हि सः व्यापारः पचिधातुना बोध्यते। यदि दर्व्या सञ्चालनं करोति तर्हि सः व्यापारः पचिधातुना बोध्यते इति। यस्मिन् समये यः व्यापारः वक्तृबुद्धिस्थः विवक्षितः, सः व्यापारः तेन धातुना बोध्यते। पचति इत्यादौ तत्तत्प्रकारकबोधस्य अनुभवसिद्धत्वात्, एतत्तु सर्वैः अवगम्यते एव, यस्यां दशायां वा भवतु पचति इत्येव प्रयोगः भवति, किन्तु का क्रिया इति तु ज्ञायत एव। अवान्तरक्रियाज्ञानमपि भवति, न च नानार्थतापत्तिः। एवं च एकेनैव पचिधातुना कदाचित् फुत्कारः वाच्यते, कदाचित् अधःसन्तापनं, कदाचित् प्रज्वालनम् इति चेत् नानार्थत्वम् अस्ति वा इति प्रश्नः। यथा हरिः इति एकः शब्दः कदाचित् विष्णुं बोधयति, कदाचित् सिंहं बोधयति, कदाचित् वानरं बोधयति, एवम् एकः पचिधातुः भिन्नेषु कालेषु भिन्नान् अर्थान् बोधयति इत्यतः नानार्थकत्वम् अस्ति वा इति प्रश्नः। नास्ति इति उत्तरम्, न च नानार्थतापत्तिः। कुतः? तदादिन्यायेन, तदादीनां सर्वनामशब्दानां प्रयोगे वस्तुतः तेषां स्वीयः अर्थः नास्ति। यदा सः अश्वः इत्युच्यते तदा तच्छब्देन अश्वः उच्यते। यदि तत् पुस्तकम् इत्युच्यते तर्हि तच्छब्देन पुस्तकम् उच्यते। यदि सः वृक्षः इत्युच्यते तदा तच्छब्देन वृक्षः उच्यते। अतः समभिहृतपदस्य अर्थानुगुणं तच्छब्दस्य भिन्नाः अर्थाः, किन्तु तेन तद् इत्येषः नानार्थकः इति नोच्यते। किमर्थम्? शक्यतावच्छेदकानां बहुत्वेऽपि। शक्यतावच्छेदकं नाम पदं, पदस्य अर्थः एव शक्यः इत्युच्यते। शक्तिः लक्षणा व्यञ्जना इति वृत्तिः कथं पदात् पदार्थः पदात् पदस्य अर्थः कथं ज्ञायते इत्यत्र वृत्तित्रयं सामान्यतः अङ्गीक्रियते हौ डज अ वर्ड एक्सप्रेस इट्स मीनिंग सो देयर आर थ्री वेज इन विच इट एक्सप्रेसेस एंड दे आर टर्म्ड एज शक्ति लक्षणा एंड व्यञ्जना यत्र साक्षात् पदेन कश्चित् अर्थः बोध्यते यथा अश्वः इत्यनेन कश्चित् पदार्थः अस्माभिः ज्ञायते सो द मोमेंट वी से अश्व देयर इज अ मीनिंग अ पदार्थ विच इज असोसिएटेड विद दैट वर्ड ओके दैट इज व्हाट वी कॉल द शक्यार्थ सो द पद इज कॉल्ड शक्तम पदम अर्थः शक्यः वृत्तिः शक्तिः सो दीस थ्री आर रिलेटेड वर्ड शक्ति इज द संबंध पद पदार्थयो संबंधः शक्तिः तत्र पदं शक्तम अर्थश्च शक्यः शक्यता ना शक्यतावच्छेदकं नाम सः धर्मः द एट्रिब्यूट विच आइडेंटिफाइज द शक्यार्थ यथा अश्वत्वम् अश्वे अश्वत्वम् शक्यतावच्छेदकम् इत्युच्यते इदानीं तच्छब्दस्य भिन्नेषु पदेषु समभिव्याहृतेषु भिन्नाः अर्थाः प्रतीयन्ते अतः शक्यतावच्छेदकाः बहवः कदाचित् अश्वत्वम् शक्यतावच्छेदकं भवति कदाचित् वृक्षत्वं भवति कदाचित् पुस्तकत्वं भवति तथापि बुद्धिविशेषादेः अनुगमकस्य सत्वात् बुद्धिविशेषस्य बलेन तत्र सर्वत्रापि एकेन तच्छब्देन सः अर्थः प्रतीयते अतः बुद्धिविशेषः अनुगमकः तत्तु एकः बुद्धिविशेषः एकः इति कारणेन तच्छब्दस्यापि एक एव अर्थः इति अस्माभिः गम्यते अतः तच्छब्दस्य नानार्थकत्वं नास्ति तथैव अत्रापि पच् इत्यादिभिः धातुभिः भिन्नेषु कालेषु भिन्नाः अवान्तरक्रियाः यद्यपि बोध्यन्ते तथापि अनुगमकस्य बुद्धिविशेषस्य ऐक्यमादाय सः व्यापारः एकः इत्येव अस्माभिः व्यवह्रियते न तु तस्य नानार्थत्वम् आख्याते क्रियैकत्वव्यवस्था अपि अवच्छेदक बुद्धिविशेष ऐक्यम् अवच्छेदकः यः बुद्धिविशेषः तस्य ऐक्यम् सः एकः इति कारणेन तत्र क्रियैकत्वव्यवस्था भाष्ये आख्यातेन एका क्रिया प्रत्यायते इत्युच्यते आख्यातम् तिङन्तेन अथवा धातुना एका क्रिया उच्यते तत्र कथम् एका क्रिया वस्तुतस्तु सर्वा अपि क्रिया क्रियान् बहूनाम् क्रियाणाम् समूहः एव तथापि बुद्धिविशेषस्य ऐक्यं स्वीकृत्य क्रियायामपि एकत्वव्यवहारः अस्माभिः क्रियते अत एव वाक्यपदीये उच्यते गुणभूतैः अवयवैः समूहः क्रमजन्मनाम् बुद्ध्या प्रकल्पिता भेदः क्रियेति व्यपदिश्यते वस्तुतः क्रिया इत्युक्ते किम् समूहः केषाम् समूहः क्रमजन्मनाम् समूहः यत्र अवयवानाम् क्रमशः उत्पत्तिः न कदापि युगपत् अवान्तरक्रियाद्वयम् दृश्यते एकस्याः क्रियायाः अनन्तरमेव अन्या क्रिया अवान्तरक्रिया भवति क्रमजन्मनाम् समूहः गुणभूतैः अवयवैः किन्तु तत्र अवयवाः गुणभूताः अर्थात् अप्रधानाः समूहस्यैव प्राधान्यम् बुद्ध्या प्रकल्पित अभेदः यद्यपि सर्वाः अवान्तरक्रियाः भिन्नाः तत्रापि बुद्ध्या तेषाम् सर्वेषाम् अभेदः प्रकल्प्यते अर्थात् एका क्रिया इति अभिज्ञानम् भवति सा एव क्रिया इति व्यवह्रियते इति वाक्यपदीये एवञ्च व्यापारस्य स्वरूपम् अपि उक्तम् व्यापारः नाम साध्यत्वेन अभिधीयमाना क्रिया क्रिया द्विविधा सिद्धक्रिया साध्यक्रिया यत्र क्रियान्तराकाङ्क्षा उदेति सा सिद्धक्रिया क्रियान्तराकाङ्क्षा यत्र नास्ति सा साध्यक्रिया साध्यक्रिया एव धातुना अभिधीयते सा च क्रिया एका न किन्तु बहूनाम् क्रमजन्मनाम् समूहः तत्तत्काले तत्तत् तस्य तस्य अवान्तरव्यापारस्य वाच्यत्वम् भवति तथापि नानार्थकत्वम् नास्ति बुद्ध्या अभेदः तत्र प्रकल्प्यते इति व्यापारस्य लक्षणम् एनि क्वेश्चन्स् सन्देहः अस्ति वा एतत् सर्वं गतवर्गे दृष्टम् अग्रे गच्छामः धात्वर्थं निरूप्य तिङर्थम् आह एतावत्पर्यन्तमपि फलव्यापारयोर्धातुः इत्यस्य व्याख्यानम्। धातुः फलस्य व्यापारस्य च वाचकः भवति। तत्र फलं नाम किं, व्यापारश्च कः इति ज्ञातम्। एवं धात्वर्थं निरूप्य तिङर्थम् आह। अग्रे कारिकायां किमस्ति, आश्रयेतु तिङस्मृताः इति तिङ्प्रत्ययानाम् अर्थः उच्यते। तद्वदति आश्रयेतु इति, तिङः तु आश्रये स्मृताः इति अन्वयः। कथं स्मृताः, वाचकत्वेन, आश्रयस्य अन्वय वाचकः तिङ्प्रत्ययः इत्यर्थः। फलाश्रये व्यापाराश्रये च इत्यर्थः। कस्य आश्रयः इति प्रश्नः भवति। आश्रयः सर्वदा आधेयसाकाङ्क्षः, सो आधारः आधेयः, सो द सब्स्ट्राटम् एण्ड् सम्थिङ्ग् विच् इस् लोकेटेड् आन् इट्, सो दे आर् परस्पर सम्बन्धिशब्दाः। अतः यदा आश्रयः इत्युच्यते, कस्य आश्रयः इति अपेक्ष्यते, आकाङ्क्षा उदेति। तत्र तु प्रत्यासत्या, प्रत्यासक्तिः बिकास् आफ् प्रकृत, किं प्रकृतमत्र, फलव्यापारयोर्धातुः इत्यत्र फलं व्यापारश्च प्रकृतम्। अतः प्रत्यासत्या फलव्यापारयोः आश्रये इति अन्वयः भवति। अत एव फलाश्रये व्यापाराश्रये च इत्यर्थः। फलाश्रये व्यापाराश्रये च तिङः वाचकत्वेन स्मृताः। फलाश्रयः किं, कर्म। फलस्य आश्रयः सर्वदा कर्म। यथा पचधातौ विक्लित्तिः फलम्, विक्लित्तिः कुत्र भवति, तण्डुलेषु भवति अथवा शाकेषु भवति, यत् पच्यते तत्र भवति। अतः तण्डुलः कर्म अथवा शाकं कर्म। व्यापाराश्रयः कर्ता। विक्लित्यनुकूलः यः व्यापारः भूत्कारादि, तदाश्रयः कर्ता, यथा चैत्रः वा माता वा कश्चित्। एवं कर्ता कर्म च तिङर्थः इति सिद्धान्तस्य द्वितीयः भागः। तत्र फलव्यापारयोः धातुलभ्यत्वात् न तिङः तदंशे शक्तिः अन्यलभ्यत्वात्। फलाश्रये व्यापाराश्रये च तिङः शक्तिः इत्युक्तम्। तर्हि तिङ्प्रत्ययः कस्य वाचकः, फलाश्रयस्य वाचकः इति वक्तव्यं वा, केवलस्य आश्रयस्य वाचकः इति वक्तव्यं वा इति प्रश्नः। तत्र केवलस्य आश्रयस्य इत्येव उत्तरम्। किमर्थम्, कर्ता अथवा कर्म। यदि फलस्य आश्रयः तर्हि कर्म, यदि व्यापारस्य आश्रयः तर्हि कर्ता। आश्रयस्य वाचकः इत्येव सिद्धान्तः। यतः फलांशः धातुना उच्यते। तत्र फलाश्रयः इत्यत्र अंशद्वयमस्ति, एकं फलं तस्य आश्रयः। तत्र फलं धातुना उच्यते, आश्रयमात्रं तिङा उच्यते। तत्र फलव्यापारयोः धातुलभ्यत्वात् न तिङः तदंशे, नाम फलांशे वा व्यापारांशे वा तिङः शक्तिः नास्ति। किमर्थम्, अनन्यलभ्यः शब्दार्थः इति न्यायः। शब्दस्य कः अर्थः, यः अन्येन केनापि नोच्यते स एव तस्य शब्दस्य अर्थः इति न्यायः अस्ति। अनन्यलभ्यः शब्दार्थः, अस्य शब्दस्य अयमर्थः इति कथं ज्ञायते, अन्येन केनापि शब्देन सः अर्थः न बुध्यते चेत् अस्य शब्दस्य अयमर्थः। अत्र फलम् इति अर्थः धातुना लभ्यते, व्यापारः इत्यर्थः अपि धातुना लभ्यते। अतः केवलम् आश्रयः इत्यर्थः एव तिङा लभ्यते। तत्र फलव्यापारयोः धातुलभ्यत्वात् न तिङः तदंशे, नाम फलांशे वा व्यापारांशे वा न शक्तिः अन्यलभ्यत्वात्, फलं व्यापारश्च अन्यलभ्यः। अतः केवलम् आश्रयांशे तिङः शक्तिः। आश्रयश्च कीदृशः, शक्यतावच्छेदकं च आश्रयत्वम्। शक्तिः पदपदार्थयो सम्बन्धः। तिङ् शक्तम् कस्मिन्नर्थे, आश्रयार्थे तिङ् प्रत्ययः शक्तः, आश्रयः शक्यः। शक्यः, शक्तिः, शक्तम्, सो द डिफरेन्स् बिट्वीन् त्री वर्ड्स् शुड् आल्वेस् बि रिमेम्बर्ड् वेरि क्लियर्ली। शक्ति इस् द सम्बन्ध, पदपदार्थयो सम्बन्धः। शक्तम् पदम्, शक्यः अर्थः। अत्र तिङः आश्रयस्य च सम्बन्धः शक्तिः। तत्र तिङ् शक्तम् कस्मिन्नर्थे, आश्रयार्थे तिङ् शक्तम् तिङ् प्रत्ययः शब्दः अतः शक्तः शक्यार्थः कः आश्रयः तत्र शक्यतावच्छेदकम् वाट् इस् द एट्रिब्यूट् विच् डिफैन्स् द शक्यार्थ इस् आश्रयत्वम् यत्र द शक्यतावच्छेदक इस् आल्वेस् द प्रापर्टी डिफैन्ड् बै द त्व सो यथा यदि गो शब्दस्य शक्यतावच्छेदकं भवति गोत्वम् एवम् अश्वस्य अश्वत्वं घटस्य घटत्वम् अत्र तु आश्रयत्वं शक्यतावच्छेदकम् आश्रयत्वं तच्च कीदृशं तत्तच्छक्तिविशेषरूपम् अर्थात् आश्रये शक्तिः आश्रयत्वं शक्यतावच्छेदकम् आश्रयत्वं नाम किं कर्तृत्वम् अथवा कर्मत्वं तत्तच्छक्तिविशेषरूपम् अर्थात् यत्र कर्तुः आश्रयः यत्र व्यापारः व्यापारस्य आश्रयः तत्र कर्तृत्वं शक्यतावच्छेदकं भवति यत्र फलस्य आश्रयः तत्र कर्मत्वं शक्यतावच्छेदकं भवति इति सुवर्थनिर्णये वक्ष्यते अग्रे धात्वर्थनिर्णयं समाप्य सुवर्थनिर्णये सुप्रत्ययानां प्रातिपदिकानां च अर्थाः विचार्यन्ते तत्र उच्यते इति तत्र आश्रयत्वं कर्तृत्वम् अथवा कर्मत्वम् ननु अनयोः आख्यातार्थत्वे किं मानम् सो द डिस्कशन् आर् द डिबेट् वित् अदर् दर्शनास् बिगिन्स् हियर् अनयोः नाम कर्तृकर्मणोः आख्यातार्थत्वे तिङर्थत्वे किं मानम् किं प्रमाणम् हौ डु यु से दट् कर्ता आर् कर्म इस् एक्स्प्रेस्ड् बै द तिङ् प्रत्यय अनयोः कर्तृकर्मणोः आख्यातार्थत्वे नाम तिङर्थत्वे किं मानम् किं प्रमाणम् इति प्रश्नः वाट् इस् द प्रूफ् टु से दट् द कर्ता आर् कर्म आर् एक्स्प्रेस्ड् बै तिङ् बिकास् यु रिमेम्बर् आल् त्री दर्शनास् डिफर् इन् दट् पायिण्ट् नैयायिकदर्शने प्रथमान्तपदात् कर्तृकर्मणोः प्रतीतिः मीमांसादर्शने आक्षेपात् लक्षणया वा प्रतीतिः वैयाकरणदर्शने तु तिङा उच्यते इति मतत्रये मतत्रयमस्ति अतः अत्र तत्पृच्छ्यते प्रतीतेः लक्षणया आक्षेपात् प्रथमान्तपदाद्वा सम्भवात् इति चेत् ओके सो दिस् इस् द फस्ट् पार्ट् आफ् द आर्ग्युमेण्ट् प्रतीतिः तत्र पचति इत्युक्ते तत्र कर्तुः प्रतीतिः भवति इत्यत्र भेदः नास्ति एव्रिबडी अग्रीस् दट् वेन् यु से पचति द कर्ता ईस् नोन् कर्तुः ज्ञानं भवति किन्तु तद्ज्ञानं शक्त्या साक्षात् तिङ् प्रत्ययेन ज्ञायते वा आक्षेपालक्षणया वा ज्ञायते वा प्रथमान्तपदा ज्ञायते वा इत्यत्र मतभेदः कर्ता ज्ञायते इत्यत्र मतभेदः नास्ति ज्ञायते एव तत्तु अनुभवसिद्धम् किन्तु कथं ज्ञायते इति प्रश्नः अतः प्रतीतेः कस्य कर्तृप्रतीतेः लक्षणया आक्षेपात् प्रथमान्तपदाद्वा सम्भवात् सो द कर्ता क्यान् बी नोन् ईदर् थ्रू लक्षण आर् थ्रू आक्षेप or through the prathamanta word. So why are you insistent that it should be through the ting pratyaya? Ting pratyaya naiva karta uchyate ityatra kim pramanam iti darshanantariya purvapaksha. Okay. So trayaha purvapakshaha yugapat atra uchyante. Lakshanaya labhyate iti kechana vadanti, akshepa labhyate iti kechana vadanti, prathamanta padad iti anye vadanti. Trayanam api समाहारः अत्र दृश्यते प्रतीतेः नाम कर्त्रादिप्रतीतेः सम्भवः अस्ति यतोहि अनन्यलभ्यशब्दार्थः इत्युक्तं यदि अन्यस्मान् न लभ्यते तदैव अस्य तिङ् शब्दस्य तत्र शक्तिः इति स्वीकर्तुं शक्यते किन्तु अन्यस्मात् लभ्यते इति अन्येषु दर्शनेषु उच्यते तत्र तिङाम् आश्रयवाचकत्वसाधनं नाम कर्तृ कर्मणि तिङ्वाच्ये इति साधने बहवः वादाः उच्यन्ते स्टार्टिङ्ग् फ्रम् हियर् कौण्डभट्टा प्रेसेण्ट्स् अ सीरीस् आफ् आर्ग्युमेण्ट्स् टु प्रूव् दट् द तिङ् एक्स्प्रेसस् कर्ता एण्ड् कर्म ओके सो तत्र किं किं केन किमुच्यते इति वादरूपेणैव पश्यामः सो दिस् इस् जस्ट् अ रेप्रेसेण्टेशन् सो द फस्ट् आर्ग्युमेण्ट् द नम्बर् रेफर्स् टु ऐ मीन्स् जस्ट् टु कीप् ट्राक् आफ् द सीरीस् वैयाकरणाः आदौ किं वदन्ति? येन शब्देन यस्य अर्थस्य प्रतीतिः भवति स शब्दः तस्य वाचकः. यथा अश्वः इति पदं यत्र उच्चार्यते तत्र अश्वपदार्थस्य प्रतीतिः भवति, अतः अश्वशब्दः अश्वपदार्थस्य वाचकः इति अनुभवसिद्धम्. एवं पचति देवदत्तः इति यत्र प्रयोगः क्रियते तत्र कर्तुः प्रतीतिः अस्ति. पचन्ति इति चेत् एवम् अन्वयेन ज्ञायते. एवं पच्यते इत्युक्ते ओदनः इति कर्मणः प्रतीतिः भवति. यत्र पचति देवदत्तः इति पचति इति प्रयोगः तत्र कर्तृप्रतीतिः अनुभवसिद्धा. एवं पच्यते इति प्रयोगे कर्मणः प्रतीतिः अपि अनुभवसिद्धा. तथा सति तिङ्द्वारा कर्तृकर्मणोः प्रतीतिः भवत्येव किल इति प्रथमः वादः. अतः कर्तृकर्मणि तिङ्वाच्ये, अर्थात् तिङः कर्तरि कर्मणि च शक्तिः इति वैयाकरणानां प्रथमः वादः. तस्य उत्तरत्वेन किं वदन्ति मीमांसकाः? तत्र यथा मया उक्तं त्रेधा पूर्वपक्षः क्रियते. सो देर् आर् त्री आर्ग्युमेण्ट्स् इन् आन्सर् टु दिस्. सो मीमांसकेषु परस्परं पक्षद्वयं विद्यते, भाट्टाः प्राभाकराः इति. प्रभाकरमिश्राणाम् अनुयायिनः प्राभाकराः, कुमारिलभट्टानाम् अनुयायिनः भाट्टाः इति परस्परं भेदः अस्ति. सो वेन् वि से इवन् वेन् वि से मीमांसा, मीमांसा इस् नाट् वन्. So they themselves have their own clashes. So tatra bhattaha mimamsakeshu kechana vadanti, kim vadanti? Tinga kartrakarmanoho pratitihi bhavati iti satyam, tattu bhavatyeva. Kinto sa pratitihi shaktim vina api sadhayitum shakyate. Tingaha kartrakarmanoho shaktihi iti vaktavyam nasti. Shaktim vina api sadhayitum shakyate. Katham tingaha bhavanayam shaktihi. तिङ् प्रत्ययेन किमुच्यते? भावना अथवा व्यापारः उच्यते. भावनाश्रयः कर्ता, तत्र लक्षणा स्वीक्रियताम्. अतः शक्त्या भावनायाः प्रतीतिः, लक्षणया लक्ष्यार्थः, न तु साक्षात् तिङ् प्रत्ययस्य अर्थः. यथा गङ्गायां घोषः इत्युक्ते गङ्गापदस्य शक्यार्थः प्रवाहः, किन्तु प्रवाचाश्रयः तीरं, तीरपदं लक्ष्यार्थः. एकस्यैव पदस्य अर्थद्वयं भवितुम् अर्हति. शक्यार्थः लक्ष्यार्थः, शक्यसम्बन्धो लक्षणा इति लक्षणायाः सामान्यः नियमः. अतः तिङ्प्रत्ययस्य शक्तिः भावनायामेव, साक्षात् शक्यत्वेन भावना प्रतीयते. भावनाश्रयः अथवा व्यापाराश्रयः कर्ता तु लक्षणया लभ्यते इति तेषां मतम्. एवञ्च लक्षणया कर्तृप्रतीतौ सिद्धायां शक्तिकल्पना मास्तु इति तेषां मतम्. अत्र कश्चन प्रश्नः अस्ति, कुत्र गतः प्रश्नः? अनन्यलभ्यशब्दार्थः इत्यत्र न्यायस्य, वाट् इस् द रेफरेन्स् फार् न्याय? स च शब्दार्थः अनन्यलभ्यः, सर्वैः तत् स्वीक्रियते एव. अनन्यलभ्यः शब्दार्थः इति नियमः सर्वैः स्वीक्रियते. अन्येन लभ्यते वा न वा इत्यत्रैव सन्देहः. नैयायिकानां मते प्रथमान्तपदात् कर्ता लभ्यते, अतः तिङः तत्र शक्तिः नास्ति. वैयाकरणास्तु तिङा कर्ता लभ्यते, अतः प्रथमान्तपदस्य तत्र शक्तिः नास्ति इति परस्परं विवादः. सर्वैस्तु सः अंशः स्वीक्रियते एव, अनन्यलभ्यशब्दार्थः इति. अत एव अन्येन लभ्यते वा न वा इति विवादः. अन्येन लभ्यते इति ते वदन्ति, लक्षणया लभ्यते, अर्थात् शक्त्यर्थ शक्तिकल्पनां विना लक्ष्यार्थः कर्ता न तु शक्यार्थः इति भाट्टमीमांसकानां मतम्. भावनायां शक्तिः, भावनाश्रये कर्तरि लक्षणा. Does it mean that they are using a twofold argument to obtain the karta? First one to get bhavana and the second. Yes, not a twofold argument. It is a two-step derivation of meaning. Everywhere, whenever they use lakshana, it is always two-step. Okay, whenever we say, when we say something like manavakaha simhaha, when you say this boy is a lion, there the simha does not mean a lion. He is does not actually have a mane or claws or whatever. That is not the artha which is intended. Simha shabdasya shakyarthaha simhaha. Simha sadrishaha iti lakshyarthaha viryena. So always a lakshyartha is something which is related to the shakyartha through something. Okay. So lakshana is always a two-step process. Always you have something which is directly the meaning and something else related to it is the lakshyartha. Yes. So that itself is the argument which they later say shaktidvaya kalpane or vrittidvaya kalpane gauravam. So they are using two vrittis. One is the shakti and the other is the lakshana. Shakti to obtain bhavana and lakshana to obtain karta through the same pratyaya. Okay. Why they do it? See, always that is the thing. So they have one siddhanta in their mind. Well, that is the bhavana mukhya visheshakaha shabda bodhaha. How to arrive at it is to that they have to do several things. Okay. So actually, unless we have the whole view of their argument, we cannot understand why they are driving the individual arguments. Okay. Evancha mimamsakaha bhattaha kim vadanti. Tingaha bhavanayam shaktihi, bhavanashraye kartari lakshana, ataha tinga karta nochyate iti tesham matam. So that is the second argument is always a response to the first. Okay. Prabhakarastu, mimam sakeshu prabhakaraha iti kashtanaganaha, te kim vadanti, akshepat kartuhu pratitihi iti vadanti. Yena vina yadanupapannam tattena akshipyate. Kaha akshepaha? What is akshepa? Yena vina, without something, yad anupapannam. Something cannot exist without something else. Tattena akshipyate. So there we have to assume the presence of the second thing. So as if you see the first thing, say for example, dhumaha. Vanhim vina dhumaha anupapannaha. Ataha dhumena vanhihi akshipyate. So when you see smoke, you have to accept that there is fire. Because without fire, smoke cannot stay. Anupapannam. So, tingaha bhavanayam shaktihi. Tanmate api ting pratyasya bhavanayam shaktihi. Kintute lakshana itina vadanti. Bhavana kartaram vina anupapanna. So, an action cannot exist without the ashraya. Ashrayam vina anupapanna. Ataha taya karta akshipyate. Akshepa balat kartuhu pratitihi iti prabhakarana matam. Punaha akshepat kartra pratuita siddhayam shakti kalpana navashyaki. Ataha tingaha bhavanayam eva shaktihi natu kartari iti tesham matam. Mimamsakanam dvitiyaha ganaha. Nayayikastu chaitraha tandulam pachati. Chaitrena tandulaha pachyate ityadau kartrikarmani kabhyam pratiyate chaitraha iti prathamanta padat karta pratiyate tandulaha iti prathamanta padat karma pratiyate ataha tingaha kartrikarmanoh shaktihi na prathamanta padadeva kartuhu karmanascha vachyatvam bhavati natu tinga iti nayayikanam matam. Evam vayakaranaanam prathamaha vadaha tingaha kartrikarmanoho shaktihi iti tattu tredha bhinnaihi pakshiyaihi nirakriyate nasti iti tasya nirakaranam punaha atra kartavyam atayeva prashnaha kimasit anayoho akhyatarthatve kim manam kim pramanam kartrikarmanoho tingvachakatve kim pramanam iti cheta atrochyate lah karmani cha bhave cha akarmakebhyah. Mimamsakanam bhattanam ekaha bhatta mimamsakanam prabhakara mimamsakanam nayayikanam iti trayaha purvapakshaha nasti nasti ekaha eva prathamanta padadeva kartakarmanoh pratitihi iti sarve nayayikaha angikurvanti atrochyate lah karmani cha bhave cha akarmakebhyah iti sutrameva manam. Kim pramanam iti prishtam, sutram pramanam. Etattu smartavyam, yadyapi vayakarana siddhantaha anyehi nirakriyante, sutram kopina nirakaroti. Paniniyam sutram sarvesham pramanam. केवलं पाणिनीयं मीमांसायामपि यदि सूत्रकृत् किञ्चित् वदति तर्हि सूत्रं सर्वेषां प्रमाणं. सूत्रस्य व्याख्यानं भिन्नरीत्या कुर्वन्ति किन्तु सूत्रं कोऽपि निराकर्तुं न शक्नोति. अतः अत्र सूत्रमेव प्रमाणत्वेन उपन्यस्यते. किं सूत्रं? लः कर्मणि च भावे च अकर्मकेभ्यः. लकारविधायकमिदं सूत्रं, लकारस्य अर्थप्रतिपादकं. कर्तरि कृत् इति तृतीयाध्याये चतुर्थपादे कृत् प्रत्ययाः कर्त्रर्थे भवन्ति इति सामान्यतः नियमः. तयोरेव कृत्यक्तखलर्थाः इत्यनेन केचन भावार्थकाः अपि सन्ति, किन्तु सामान्यतः कृत् प्रत्ययाः कर्तर्यर्थे एव भवन्ति, कर्तरि कृत्. अग्रिमं सूत्रमस्ति भव्यगेयप्रवचनीय उपस्थानीय अजन्य अप्लाव्य आपात्या वा. एते शब्दाः वा कर्तरि निपात्यन्ते, अतः कर्तरि इति अनुवर्तते. लः कर्मणि च भावे च अकर्मकेभ्यः इति अग्रिमं सूत्रम्. तत्र वाक्यद्वयं कर्तरि इति अनुवर्तते, लः कर्तरि कर्मणि च. लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युः, अकर्मकेभ्यः भावे कर्तरि च. अत्र चकारात् कर्तरि इति अनुवर्तते, वाक्यभेदः अस्ति. अकर्मकेभ्यः भावे कर्तरि इति उक्तत्वात् परिशेषात् सकर्मकेभ्यः कर्मणि कर्तरि इति सूत्रार्थः. लकाराः सकर्मकेभ्यः धातुभ्यः कर्मणि कर्तरि च स्युः, अकर्मकेभ्यो धातुभ्यः भावे कर्तरि च. अत एव यत्र अकर्मकः धातुः तत्र कर्तरिप्रयोगः भावे प्रयोगः, यत्र धातुः सकर्मकः तत्र कर्तरिप्रयोगः कर्मणि प्रयोगः. प्रयोगः इत्यस्य स एव अर्थः, लकारः कर्तारम् अभिदधाति अथवा कर्म अभिदधाति, भावः नाम व्यापारमेव अभिदधाति इति वा अर्थः. एवं सूत्रात् साक्षात् उच्यते सूत्रेण लः कर्मणि च भावे च अकर्मकेभ्यः कर्तरि इति अनुवर्तते. अतः कर्तरि कर्मणि लकाराः भवन्ति. लकाराः भवन्ति इत्येव किल उच्यते, तिङ् भवति इति तु नोच्यते. बोधकतारूपां तिङादिशक्तिं तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य लकाराः कर्मणि कर्तरि च अनेन विधीयन्ते. एतत् स्मर्तव्यम्, लकारः कदापि न श्रूयते प्रयोगे. यु विल् नेवर् हियर् एनी लकार. से पचति इस् लट् लकार, बट् वेर् इस् द लकार इन् दट्? यु विल् नेवर् हियर् एनी लकार यु टेक् ल, दट् ल इस् नेवर् हर्ड्. वै? लस्य इति अधिकारेण लकारं विधाय झटिति तिप्तस्थि इति सूत्रेण लकारस्य स्थाने तिङादयः आदेशत्वेन उच्यन्ते. कुत्रापि प्रयोगे लकारस्य श्रवणं न भवति, तर्हि लकाराः कल्पिताः. सो लकार इस् नाट् समथिङ्ग् विच् एक्सिस्ट्स् रियलि. द प्रत्यय यु केन् हियर् इट्, पचति इत्यत्र तिप् इति श्रूयते, पचतः इत्यत्र तस् इति श्रूयते, किन्तु लकारः कुत्रापि न श्रूयते. तर्हि लकारः कल्पितः, इट्स् एन् इमेजिनरि कान्सेप्ट्, इट् इस् नाट् एक्चुलि हर्ड् इन् प्रयोग. किमर्थं कल्पिताः? प्रक्रियानिर्वाहार्थं कल्पिताः लकाराः, यतोहि लकारमाश्रित्यैव कस्मिन् लकारे किं कार्यं भवति इति लकारमाश्रित्यैव तिङ् प्रत्ययानां, ते अष्टादश तिङ् प्रत्ययाः, लट्लकारेऽपि तयेव, लङ्लकारेऽपि तयेव, लृटि अपि तवेव, किन्तु रूपास्तु भिद्यन्ते. तत्र कथं तत्र भेदः वक्तव्यः? लकारमाश्रित्यैव वक्तव्यः. इट् इस् द सेम् 18 तिङ् प्रत्ययस्, बट् यु जनरेट् the forms in 10 different lakaras using the same pratyayas. So how do we do that? By creating an imaginary concept called a lakara. So even though you never hear the lakara, prakriya nirvahartham kalpitaha lakaraha na kadachit prayoge shruyante, ataha arthabodhakatvam api nasti. Arthabodhakatvam kasya bhavati? Yaha shabdaha shruyate tasya arthabodhakatvam bhavati. Yastu nastyeva prayoge तस्य अर्थबोधकत्वमपि नास्ति. तर्हि किमर्थं कर्तरि कर्मणि इत्युच्यते? पाणिनीयक्रमः एषः, तृतीये अध्याये चतुर्थपादे सप्तसप्ततितमं सूत्रं, लस्य नाम लकारस्य स्थाने तिप्तस्थि इति अग्रिमेण सूत्रेण साक्षात् आदेशाः उच्यन्ते. वस्तुतः कर्तृकर्मणोः बोधकाः तिङ्प्रत्ययाः एव. द एक्चुअल् particles which we hear in prayoga is the thing pratyayas. Therefore, it is the thing pratyayas which express the meaning of karta and karma. Tingshu vidyamana shaktihi tat sthanitvena kalpiteshu lakareshvapi anena sutrena aropyate. Okay, so the bodhakata shakti, the power of expressing a meaning, exists only in the adesha. It is not only here, atraiva itina, sarvatra yatra yatra sthani adeshaha ityasti, yaha antimaha adeshaha sayeva shruyate, tasyaiva arthabodhakatvam bhavati. Kintu sthaninam saha arthaha asti iti aropaha asmabhihi kriyate. Sthanini sarvada arthasya aropaha. So he sthani nasti, tasya arthopi nasti. Everywhere, so vyakarana is actually an imaginary prakriya. So whatever is a sthani is never heard. So it is also does not carry any meaning of its own. The final meaning of the adesha is imposed backwards into the sthani. Ataha, tingshu ya shaktihi asti, saeva shaktihi, sthanitvena kalpiteshu lakareshu aropyate. Ataha, yadyapi lakaraha kartari karmani iti bodhitaha, tathapi tinaha eva tatra shaktihi natu lakarasya. Prakriya kalpaniki atayeva. Vastutaha vayam prakriya drishtya adau lakaram kurmaha anantaram ting. Kintu vastutaha prayoge tingeva asti. Tatah purvam yadasti tat sarvam api kalpanikam eva. Ataha kalpiteshu lakareshvapi etashaha aropaha kriyate. Nakevalam atra. Suppu pratyayeshu api tathaiva. Nakara visargadi nishtham karma karanadi bodhakata shakti madaya shasadi vidhanavat. Supratyayeshu api ye pratyayaha shruyante te kalpanikaha eva pratyayaha. Yatha raman iti dvitiya vibhaktihi. Atra etat karma katham nyayate nakarena nyayate. Vastutaha nakaraha eva tatra karmatvasya bodhakaha. Ramaihi iti yaha asti aikaraha visargaha tenaiva karanatvam bodhyate. So the actual prayoge nakara visargadi nishtham karma karanadi bodhakata shakti. Karmanaha bodhakata shaktihi kutra asti nakare asti. Evam karana bodhakatvam kutra asti visargadishu asti. Kintu asmabhi kimuchyate vibhaktya karma karanadikam bodhyate ityataha. Kimuchyate karmani dvitiya iti dvitiya vibhaktihi am aut shas iti pratyayaha vidhiyante. Vastutaha shasina shruyate karmani shas pratyayaha iti katham aropena adeshe nakare yaha karmatva bodhaka shaktihi saha sa shaktihi eva shas pratyaye aropyate. Evam visarge yaha karanatva bodhaka shaktihi sa eva sthani bhute bhis pratyaye aropyate. So this is accepted by everybody. Yadyapi tingantesh angi kurvanti va nava atra tu sarvaihi angi kartavyam eva. It has to be accepted by everybody because the sthanyadesha bhava always means you are imagining something which is not there. All sthanis are imaginary because you will not hear them. It is only the adesha which is real. All sthanis are imaginary. Kintu vyakarane sthaninam eva artha nirdeshaha kriyate natu adeshanam. Katham iti chet adesheya shaktihi saeva shaktihi sthanini aropyate. Ataha atrapi prayoge nakara visargadibhihi eva karmava karanamva uchyate. Kintu sa shaktihi prakriya nirvahartham kalpiteshu pratyayeshu aropyate. Evameva atrapi tingameva kartrikarmanoho shaktihi sthanibhuteshu lakareshu sa shaktihi aropyate. Aropya sutrakarena uchyate lahkarmani cha bhave cha iti. Ataha tingam kartari karmani cha shaktihi angi kartavya iti vayakaranam uttaram. So this is three. The first argument was one where vayakaranaha vadanti yasya pratyasya yasya padasya shravane yasya arthasya pratitihi satasya vachakaha. Ataha tingantasya shravane kartuhu karmanascha pratitihi bhavati. Ataha ting pratyaha tesham vachakaha iti vayakaranam prathamaha vadaha. Taduttarena trayaha vadaha uktaha bhinnaihi ganaihi भाट्टमीमांसकैरुच्यते प्रतीतिः भवति किन्तु शक्त्या न तिङः भावनायां शक्तिः भावनाश्रये कर्तरि लक्षण अतः लक्ष्यार्थत्वेनैव कर्तृकर्मणोः प्रतीतिः न तु शक्यार्थत्वेन इति केचन वदन्ति तिङः भावनायां शक्तिः भावना कर्तारं विना अनुपपन्ना इत्यतः कर्ता आक्षिप्यते अतः आक्षेपात् कर्तुः प्रतीतिः न तु शक्त्या इति प्राभाकराः वदन्ति प्रथमान्तपदादेव कर्तृकर्मणोः प्रतीतिः भवति न तु तिङन्तेन अतः तिङः शक्तिः नास्ति इति त्रेधा निराकरणं कुर्वन्ति अन्यदर्शन अनुयायिनः किन्तु तत्र सूत्रप्रामाण्यं प्रदर्श्यते इदानीं वैयाकरणेन लह्कर्मणि च भावे च अकर्मकेभ्यः इति सूत्रेण सूत्रकारः स्पष्टं ब्रवीति लकाराः कर्मणि कर्तरि च स्युः इति आदेशभूतेषु तिङ्षु या शक्तिः कर्तृकर्म बोधकता शक्तिः तत् स्थानीभूतेषु लकारेषु आरोपिता अन्यत्रापि स्थान्यादेशभावेषु इयं रीतिः सर्वैरङ्गीक्रियते अतः अत्रापि अङ्गीकर्तव्यमेव अतः इत्थञ्च सूत्रप्रामाण्यात् तिङां कर्तृकर्मणोः शक्तिः अङ्गीकार्या इति वैयाकरणानां वादः तस्य उत्तरेण उत्तररूपेण किमुच्यते न च सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे तथा च कर्तृत्वं कृतिः कर्मत्वं च फलमेवार्थः अस्तु इति शङ्क्यम् यथा गतवर्गे उक्तं न च इति पूर्वपक्षारम्भः तस्य अन्वयः अङ्क्ते भवति अतः सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे तथा च कर्तृत्वं कृतिः कर्मत्वञ्च फलमेवार्थो अस्तु इति न शङ्क्यम् इति अन्वयः सो द अन्वय आफ् न च इस् आल्वेस् टु द एण्ड् सो दिस् इस् नाट् रैट् इत्येव अर्थः सो अयं पूर्वपक्षः इदानीं नैयायिकानां भवति वैयाकरणैः तदेव नैयायिकाः वदन्ति नैयायिकाः एवं वदन्ति अस्माभिः वैयाकरणैः सूत्रप्रामाण्यं प्रदर्शितं सूत्रेण उच्यते कर्मणि कर्तरि इति अतः तिङां कर्तृकर्मणो शक्तिः इति वैयाकरणैः उच्यते तस्य उत्तरत्वेन नैयायिकाः वदन्ति द्व्येकयोर्द्विवचनैकवचने इति सूत्रमस्ति द्वि एकयोः द्विवचन एकवचने तत्र द्विशब्दस्य द्वित्वम् इत्यर्थः अङ्गीक्रियते एवम् एकशब्दस्य च एकत्वम् इत्यर्थः अङ्गीक्रियते किमर्थम् द्व्येकयोः इत्यत्र द्विवचनप्रत्ययः द्वि एकयोः द एण्ड् देर् इस् अ द्विवचनप्रत्यय द्वि इस् वन् अण्ड् एक इस् वन् बट् द्वि इस् एक्चुलि टु अण्ड् एक इस् वन् सो टुगेदर् देर् इस् त्रि सो वस्तुतः तत्र बहुवचनप्रत्ययः भवेत् किन्तु द्विवचनप्रत्ययः उपयुक्तः अतः किं वदन्ति द्विशब्दस्य द्वौ इति अर्थः न किन्तु द्वित्वम् द प्रापर्टी आफ् टु विच् इस् वन् ऐ मीन् द्वित्वम् इति एक एव पदार्थः एवम् एकशब्दस्य च एकत्वम् इत्यर्थः अतः द्वित्वे एकत्वे च विवक्षिते द्विवचनैकवचनप्रत्ययौ भवतः इति सूत्रार्थः वैयाकरणैरेव उच्यते द्विशब्दस्य द्वित्वम् These are all subtle differences which are to be noted. When you are saying dvau, it refers to a dharmi. To what? Either to eggs or to trees or to birds. Sankhyayaha ityuchyate dharmi. Something which possesses the attribute of two. Whereas dvitva is a dharma. So dharmi and dharma. So here, even though the sutra says dvyekayoho, we are interpreting it as a dharma. That is dvitvam. एकत्वम् द प्रापर्टी आफ् टूनेस् द्वित्वम् आर् द प्रापर्टी आफ् वन्नेस् एकत्वम् द्वित्वे एकत्वे द्विवचन एकवचन प्रत्ययौ भवतः इति सूत्रार्थः इति उच्यते तथैव अत्रापि लः कर्मणि इति सूत्रे कर्तरि इत्युच्यते तत्र कर्तृत्वम् इति स्वीकुर्मः एवं कर्मणि इत्युच्यते कर्मत्वं स्वीकुर्मः अर्थात् धर्मि परकत्वेन कर्ता कर्म च धर्मिणौ सो धर्मिपरकत्वेन व्याख्यानं मास्तु धर्मपरकत्वेन व्याख्यानं कुर्मः अर्थात् कर्तरि इत्युक्ते कर्तृत्वे कर्मत्वे चलकाराः भवन्ति इति यदि अङ्गीक्रियते तदा किं भवति? कर्तृत्वं नाम किं? कृतिः. द अट्रिब्यूट् आफ् कर्तृत्व इस् कृति. कर्मत्वं नाम फलं. तदेव भवतु. कृतिः एव अस्तिङर्थः, न तु कर्ता इति नैयायिकानां मतम्. यथा भवन्तः द्व्येकयो द्व्यवचनैकवचने इति सूत्रे द्विशब्दस्य द्वित्वम्, एकशब्दस्य एकत्वम् इत्यर्थं कुर्वन्ति, एवमत्रापि कर्तरि इत्यस्य कर्तृत्वं, कर्मणि इत्यस्य कर्मत्वम् इत्यर्थं स्वीकुर्वन्तु. तथा च कर्तृत्वं नाम कृतिः, कर्मत्वं च फलम्. अत्रैव शक्तिः भवतु. कर्तृकर्मणोः शक्तिः इति मास्तु. एवञ्च कृतिः फलञ्च तिङ् प्रत्ययार्थः इति सिद्ध्यति इति नैयायिकानां पूर्वपक्षः. अतः तिङः कर्तृकर्मणो शक्तिः नास्ति. सूत्रप्रामाण्ये प्रदर्शिते अपि तेन तिङ् प्रत्ययस्य कर्तृकर्मणो शक्तिः इति वक्तुं न शक्यते इति पुनः पूर्वपक्षः. Are we clear or getting confused? Always in a Shastra, it is not one question, one answer. It is always a series of arguments and answers. Okay, it is like a tennis rally. You have to keep following the ball, how it falls. Each one tries to hit it to the other's court. So where it falls out or he cannot hit it, that is where the argument ends. Okay, so it is always needs to be followed as a series. Okay, so now we have reached the step 4, that is 2 shots each. Okay, so agre katham pravartate iti agrima kachyayam pashyamah. Sandeha, any doubts?
Dharmi dharmaha vishyam kunjom pradarasal dengyasa kunjasiriyam.
Dharmaha iti, it's an attribute. Yatha idanim krishnatvam, blackness, the color of being black or white or any property is called dharmaha. It could even be action. Dharmi, dharmaha asya asti iti dharmi. So you know, dharma cannot exist independently. For example, blackness, it cannot exist without a dravya. Either guna or kriya, that is what we call by dharma. Gunakriyayoho svatantriyena, you cannot show the property of blackness by itself. Either it has to be a black computer or a black phone or black hair. It is always associated with the dharmi. Okay, even though blackness, krishnatvam gunaha, kintu dharminam vina na tishthati. Okay, so dharmi, dharma is the attribute. Dharmi is an object, a dravya, which possesses the attribute. So, for example, in this case, vyapara or action is an attribute. But it will always, you can see vyapara only with a karta. That is, without a karta, you cannot see, it will not exist. Okay. So, karta, dharmi, he possesses the property of vyapara. Okay. So, kartritvam dharmaha, karta, dharmi. यथा कृष्णत्वं धर्मः, कृष्णः अश्वः वा यत्किमपि वा सः धर्मी इत्युच्यते. सो आर् यू इण्टर्प्रिटिङ्ग् समथिङ्ग् लैक् से इन् दिस् से वेन् ऐ से कर्तरि, सो कर्ता इस् धर्मी, बट् इफ् यु इण्टर्प्रिट् एस् कर्तृत्व, इट् इस् अ धर्म, द एट्रिब्यूट् विच् इस् व्यापार. अवगतम्?
अवगतम्.
नमस्ते जी. व्हेन वी से स्वतंत्र कर्ता, दैट मीन्स ही इज नॉट डिपेंडेंट ऑन एनीथिंग, राइट?
स्वातंत्र्यं बहुधा व्याख्यायते. स्वतंत्र कर्ता इत्यत्र स्वातंत्र्यं नाम किम् इत्यत्र देयर आर सेवरल वेज इन व्हिच स्वातंत्र इज इंटरप्रिटेड. सो व्हाई इज दिस, आई मीन व्हाट इज दिस क्वेश्चन लीडिंग टू?
No, when we talk about panashrayam, katra ashrayam, that means that katra leans on something, right?
No. I mean, see, it's not that kind of leaning. It means katra ashrayaha vyaparaha means vyapara is present in the karta.
Ah,
It does not mean the karta is dependent on the vyapara. Actually, karta is the adhara and vyapara is the adheya. So, kartrashrayaha vyaparaha means a vyapara which is present in the karta. That's
so, vyapara means on karta, but karta doesn't
no,
mean
on... No, there is no such this thing on... I mean, in this case, it does not give you any such interpretation on who is leaning on what. Okay, even when we say vyaparaha pradhanam, still karta is svatantra. The vyapara cannot exist on its own without the karta. But what we say, when we say pradhana, it means it is the vyapara which is which is understood as the main qualificant in the main visheshya in the vakya. That is what it means. The pradhanya does not here. It is not a pradhanya of, I mean, who is important, like say. The pradhanya, if you say rajnyaha purushaha, just an example, when you are saying rajnyaha purushaha or rajnyaha dasaha, raja dasaha, we say dasaha pradhanaha natu raja. So what is pradhanya there? It does not mean the king is or the servant is more important than the king in the worldly sense. It means in that word, the meaning when you say Ekaha Rajadasaha or Rajadasaha Gachyati, it means that the Dasa gets related to Gachyati and not the Raja. The Raja will not go, the Dasa will go. So that is the Pradhanya and not that Dasa is more important than the Raja. So similarly here, when we are saying Vyaparaha Pradhanam, it does not mean Vyapara is more important than the Karta or that it can exist without or that the Karta is dependent on Vyapara. It just means Vyapara is expressed as the main Visheshya in the sentence. And everything else is related to it as Visheshana. That is all. It is not the, you know, the Laukika Pradhanya which we are talking about here.
And when you talk about Padashakti or the Shakyam, etc., then Adesha. All the Adeshas, many of them, like Karmani Chabhavesha. Then it looks as if it is imaginary, does it mean it doesn't have that Shakti or it has the Shakti?
Which one?
When we say La, Lat, Lit, Lut, La, that La has no meaning except in the sutras.
Yeah, see, meaning can exist only for that which is used. You will never hear lakara. So you obviously does not, I mean, when the shabda itself does not exist, where is the question of it having an artha? Lakara itself does not exist. It's a fact. Prayoge lakara kutrapi na shruyate. So there is nothing called lakara, which is heard ever. So... there is no question of it having a meaning.
Okay. Thanks.
Yeah. So, there's one more question. Is it possible to express the main principles in English? Well, I don't know if it is possible. Even if it was, I wouldn't do it. See, I mean, say, English has its own technical terms. I mean, what is the exact technical term for karta or karma? If I have to translate, say, karta as agent or the karma as object, again, there are several, the language itself, see, always, when you are talking about shastra-artha, the language itself has its limitations. When I say object, does it mean object as a padartha or does it mean object as karma? I cannot explain again in English if I use the word object. I cannot explain, okay, I'm referring to padartha or am I referring to karma. So instead, if we understand it through the words karma or padartha, it is easier because they are the words which are used in the Shastra Grantha. So that is why at this level, even though I am trying to use English wherever there might be, you know, a bit of difficulty in understanding, I would prefer not to use the Paribhashika Padas in English because, again, it multiplies confusion, both for me, that is also my limitation probably, that I do not know that much of technical writing in English to be able to accurately translate. Because, I mean, I could tell something in approximation, but that might not bring out the exact meaning of what the text is trying to say. Okay. So if you don't understand, please let me know. I will definitely try to explain in English, but generally we'll stick to Sanskrita and maybe simpler Sanskrita to understand, because that will avoid having to know multiple terms for the same thing. Any other questions? कारिकाः पठित्वा समापयामः. फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः तत्त्वनिर्णीत एवार्थः संक्षेपेणेह कथ्यते. फलव्यापारयोर्धातुः आश्रयेत तिङस्मृताः. फले प्रधानं व्यापारः तिङर्थस्तु विशेषणं. फलव्यापारयोस्तत्र फले तङ्यक्तिनादयः. व्यापारे शप्ष्णमाद्यास्तु द्योतयन्त्याश्रयान्वयम्. उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् तस्माद्यथोचितं ज्ञेयं द्योतकत्वञ्यथागमम्. व्यापारो भावना सैवोत्पादना सैव च क्रिया. कृण्यो कर्म कतापत्तेर्न हि यत्नोऽर्थ इष्यते, किन्तूत्पादनमेवातः कर्म वत्स्याद्यगाद्यपि. कर्मकर्तर्यन्यथा तु न भवेत्तदृशेरिव. निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते, न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः. तस्मात् करोतिर्धातोऽस्याद्व्याख्यानन्नत्वसौ तिङाम्. पक्ववान् कृतवान् पाकम् किं कृतम् पक्वमित्यपि. किं कार्यम् पचनीयम् चेत्यादि दृष्टम् हि कृत्स्वपि. किञ्च क्रिया वाचकताम् विना धातुत्वमेव न. सर्वनामाव्ययादीनाम् यावादीनाम् प्रसङ्गतः न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम्. धात्वर्थत्वम् क्रियात्वम् चेद्धातुत्वम् च क्रियार्थता. अन्योन्यसंशयस्पष्टस्तस्मादस्तु यथाकरम्. अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना. अन्यत्राशेषभावात्तु सा तथा न प्रकाशते. फलव्यापारयोरेकनिष्ठतायामकर्मकः. धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः. आख्यातशब्दे भागाभ्याम् साध्यसाधनरूपता. प्रकल्पिता यथा शास्त्रे सघन्यादिष्वपि क्रमः. साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना. सिद्धभावस्तु यस्तस्याः सघन्यादिनिबन्धनः. सम्बोधनान्तम् कृत्वोऽर्थाः कारकम् प्रथमोवतिः. धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनै. तथा यस्य च भावेन षष्ठी चेत्युदितम् द्वयम्. साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम्. यदि पक्षेऽपि वत्यर्थः कारकञ्चनन्यादिषु अन्वेति त्यज्यताम् तर्हि चतुर्थ्या स्पृहि कल्पना. अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः. क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता. कृत्वोऽर्थाः त्वातुमुन्वत्स्युः इति चेत् सन्ति हि क्वचित्. अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात्. भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम्. साधुत्वन्तरभावेऽपि बोधो नेह निवाद्यते. श्रीलक्ष्मीरमणम् नौमि नौरीरमणरूपिणम्. स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते. So those who are preparing seriously for Bhushanasara, especially for the exams, please read the shlokas at least daily. So having the shlokas by heart will add a lot of weight to the answers. Okay, at least you write the shloka and write something about it, which is quite good for the exams. Next week, Tuesday and Thursday classes as of now. So if there is any change, I'll let you know. Okay. Tuesday, Thursday, 3:30 will be the classes.